ஜனநாநாந் த்வா கணபதிகும் ஹவாமஹே கவிம் கவீனாமுபமஸ்ரவஸ்தமம் ஜேஷ்டராஜம் ப்ரஹ்மணாம் ப்ரஹ்மணஸ்பத ஆனஶ்ருண்மன்னோ திபிஃ சேத சாதனம் ப்ரணோ தேவீ சரஸ்வதி வாஜேப் வாஜினீவதி தீனாம வித்ரயவது கணேஷாய நமஹ சரஸ்வத்யை நமஹ ஸ்ரீகுருப்யோ நமஹ ஹரிஹி ஓம் ஓம் நமோ பகவதே ருத்ராய ஓம் நமஸ்தே ருத்ரமன்யவ உதோத இஷவே நமஹ நமஸ்தே அஸ்து தன்வனே பாஹுப்யாமுததே நமஹ யாத இஷு சிவதமா சிவம் பபூவதே தனுஹ சிவாசரவ்யாயாதவதயானோ ருத்ரமிருடயா யாதே ருத்ர சிவா தனுரகோரா பாபகாசினி தயானஸ்தனு வாசந்தமயா கிரிஷந்தாபிஜாகசி யாமிஷும் கிரிஷந்தஹஸ்தேபிபர்ஷ்யஸ்தவே சிவாம் கிரித்ரதாம் குரு மாஹிகும்சி புருஷம் ஜகத் சிவேன வசசா த்வா கிரிசாச்சா வதாமசி யதா நஸ்தத்வமிஜகத யக்ஷ்மகும் சுமனாசத் அத்யவோசததி வக்தா பிரதமோ தைப்யோபிஷக் அஹேகஶ்ச சர்வான் ஜம்பயந் சர்வாத் சயாது தான்யஹ அதௌ யஸ்தாம்ரோ அருண உத பப்ருஃ சுமங்கலஃ ஏதே மாகும் ருத்ரா அபிதோ திக்ஷுஃ ஸ்ருதாத் சஹஸ்ரஶோ வைஷாகும் ஹேடயீமஹே அசவ்யோ வசர்பதி நீலக்ரீவோ விலோஹிதஃ உதைனம் கோபா அத்ருஷன் அத்ருஷன்னுதஹார்யஃ உதைனம் விஸ்வா பூதானி சத்ருஷ்டோ மிருடயாதினஃ நமோ அஸ்து நீலக்ரீவாய சஹஸ்ராக்ஷாய மீடுஷே அதோகே அஸ்ய சத்வானோஹம் தேப்யோ கரண் நமஹ ப்ரமுஞ்ச தன்வனஸ்வமுபயோராத்னியோர்ஜ்யாம் யாஶ்ச தேஹஸ்த இஷவப்பராதா பகவோ வப அவதத்ய தனுஸ்வகும் சஹஸ்ராக்ஷஶதேஷுதே நிஷேத்ய சல்யாணாமுகா சிவோ ந சுமனாபவ விஜ்யம் தனுக் கபர்தினோ விஷல்யோ பாணவாகும் உத அனேஷன்னஸ்யேஷவ ஆபுரஸ்ய நிஷங்கதிஹ யாதேஹே தேர்மேடுட்ட மஹஸ்தே பபூவதே தனுஹ தயாத்மான் விஸ்வதஸ்வமயக்ஷ்மயா பரிப்புஜா நமஸ்தே அஸ்வாயுதாயநாததாய த்ருஷ்டவே உபாப்யாமுததே நமோ பாஹுப்யாம் தவ தன்வனே பரிதே தன்வனோ ஹேதிரஸ்வான் விணக்து விஸ்வதஃ அதோயிஷுதிஸ்தவாரே அஸ்மன்னிதேஹிதம் நமஸ்தே அஸ்து பகவன் விஸ்வேஸ்வராய மகாதேவாய த்ரயம்பகாய த்ரிபுராந்தகாய त्रिकाग्निकालाय कालाग्निरुद्राय नीलकण्ठाय मृत्युम् जयाय सर्वेश्वराय सदाशिवाय श्रीमन्महादेवाय नमः नमो हिरण्यबाहवे सेनान्ये दिशां च पतये नमो नमो वृक्षेभ्यो हरिकेशेभ्य पशूनां पतये नमो नमः सत्सिञ्जराय त्विषीमते पधीनां पतये नमो नमो बब्लुषाय विव्याधिने नानां पतये नमो नमो हरिकेशायोपवीतिने पुष्टानां पतये नमो नमो भवत्य हेत्यै जगतां पतये नमो नमो रुद्राय तथा विने क्षेत्राणाम् पतये नमो नमः सूताय हन्त्याय वनानाम् पतये नमो नमो रोहिताय स्तपतये वृक्षाणाम् पतये नमो नमो मन्त्रिणे वाणिजाय कक्षाणाम् पतये नमो नमो भुवन्तये वारिवत्कृताय औषधीनाम् पतये नमो नम उच्चैर्घोषाय क्रन्दयते पत्तीनाम् पतये नमो नमः कृत्सवीताय धावते सत्त्वनां पतये नमः नमः सहमानाय निव्याधिन आव्याधिनीनां पतये नमो नमः ककुभाय निषङ्गिने सेनानां पतये नमो नमो निषङ्गिन इषुधिमते तस्कराणां पतये नमो नमो वञ्चते परिवञ्चते स्तायूनां पतये नमो नमो निचेरवे परिचरायारण्यानां पतये नमो नमः श्रिकाविभ्यो जिगागुंसद्भ्यो मुष्टताम् पतये नमो नमोऽसिमद्भ्यो रक्तम् जरद्व्यप्रकृन्तानाम् पतये नमो नम उष्णीषिने गिरिचराय कुलुञ्चानाम् पतये नमो नम गिषुमद्भ्यो धन्वाविभ्यश्च वो नमो नम आतन्वानेभ्य प्रदिदधानेभ्यश्च वो नमो नम आयच्छद्भ्यो विसृजद्भ्यश्च वो नमो नमोऽस्यद्भ्यो विद्यभ्यश्च वो नमो नम आसीनेभ्यश्रयानेभ्यश्च वो नमो नम स्वपद्भ्यो जाग्रभ्यश्च वो नमो नम तिष्ठद्भ्यो दावभ्यश्च वो नमो नम सभाभ्यः सभापतिभ्यश्च वो नमो नमो अश्वेभ्यो अश्वपतिभ्यश्च वो नमः नम आव्याधिनेभ्यो विविध्यन्तेभ्यश्च वो नमो नम उगणाभ्यस्त्रिगुंहतेभ्यश्च वो नमो नमो गृत्सेभ्यो गृत्सपदिभ्यश्च वो नमो नमो व्रातेभ्यो व्रातपदिभ्यश्च वो नमो नमो गणेभ्यो गणपदिभ्यश्च वो नमो नमो विरूपेभ्यो विश्वरूपेभ्यश्च वो नमो नमो महद्भ्यः चुल्लकेभ्यश्च वो नमो नमो रतिभ्यो रथेभ्यश्च वो नमो नमो रथेभ्यो रथपदिभ्यश्च वो नमो नमः सेनाभ्यः सेनानिभ्यश्च वो नमो नमः శత్రుభ్యః సంగ్రహీతృభ్యశ్చ వో నమో నమస్తక్షద్భ్యో రథకారేభ్యశ్చ వో నమో నమః కురాలేభ్యః కర్మారేభ్యశ్చ వో నమో నమః పుంజిష్టేభ్యో నిషాదేభ్యశ్చ వో నమో నమః ఇషుకృద్భ్యో ధన్వకృద్భ్యశ్చ వో నమో నమో మృగయోభ్యశ్వనిభ్యశ్చ వో నమో నమః స్వభ్యశ్వపదిభ్యశ్చ వో నమః నమో భవాయ చ రుద్రాయ చ నమః శర్వాయ చ పశుపతయే చ నమో నీలగ్రీవాయ చ శితికంఠాయ చ నమః కపద్దినే చ వ్యుక్తకేశాయ చ నమః సహస్రాక్షాయ చ శతధన్వనే చ నమో గిరిశాయ చ శివివిష్టాయ చ నమో మీడుష్టమాయ చేషుమతే చ నమో హ్రస్వాయ చ వామనాయ చ నమో బృహతే చ వర్షీయసే చ నమో వృద్ధాయ చ సంవృద్ధ్వనే చ నమో అగ్ర్యాయ చ ప్రథమాయ చ నమః ఆశవే చాచిరాయ చ నమః శీఘ్రయాయ చ శేభ్యాయ చ నమః ఓర్యాయ చ వస్వన్యాయ చ నమః శ్రోతస్యాయ చ వీప్యాయ చ నమో జ్యేష్ఠాయ చ కనిష్ఠాయ చ నమః పూర్వజాయ చ పరజాయ చ నమో మధ్యమాయ చ పగల్భాయ చ నమో జగన్యాయ చ బుద్ధ్యాయ చ నమః సోగ్యాయ చ ప్రతిసర్యాయ చ నమో యామ్యాయ చ క్షేమ్యాయ చ నమః ఉర్వర్యాయ చ ఖల్యాయ చ నమః శ్లోక్యాయ చావసాన్యాయ చ నమో వన్యాయ చ కక్ష్యాయ చ నమః శ్రవాయ చ ప్రతిశ్రవాయ చ నమః ఆశుషేనాయ చాశురథాయ చ నమః శూరాయ చావవిందతే చ నమో వర్మినే చ వరోధినే చ నమో బిల్మినే చ కవచినే చ నమః శ్రుతాయ చ శ్రుతసేనాయ చ నమో దుందుభ్యాయ చ హనన్యాయ చ నమో దృష్టవే చ ప్రమృషాయ చ నమో దూతాయ చ ప్రయితాయ చ నమో నిషంగినే చేషుధిమతే చ నమః తీక్ష్ణే చ వేచాయుధినే చ నమః స్వాయుధాయ చ సుధన్వనే చ నమః శ్రుత్యాయ చ పత్యాయ చ నమః కాట్యాయ చ నీప్యాయ చ నమః శోధ్యాయ చ సరస్యాయ చ నమో నాద్యాయ చ వైశంతాయ చ నమః కోప్యాయ చ వట్యాయ చ నమో వర్ష్యాయ చ వర్ష్యాయ చ నమో మేధ్యాయ చ విద్యుత్యాయ చ నమః ఈద్రియాయ చ తప్యాయ చ నమో వాత్యాయ చ రేష్మ్యాయ చ నమో వాస్తవ్యాయ చ వాస్తుపాయ చ ఓం హర 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 ఓం నమః సోమాయ చ రుద్రాయ చ నమః తామ్రాయ చ రుణాయ చ నమః శంగాయ చ పశుపతయే చ నమః ఉగ్రాయ చ భీమాయ చ నమో అగ్రే వధాయ చ దూరే వధాయ చ నమో అంత్రే చ హనీయసే చ నమో వృక్షేభ్యో హరికేశేభ్యో నమస్తారాయ నమః శంభవే చ మయోభవే చ నమః శంకరాయ చ మయస్కరాయ చ నమః శివాయ చ శివతరాయ చ నమః प्रीत्याय च कोल्याय च नमः भाग्याय च भाग्याय च नमः प्रतरणाय चोत्तरणाय च नमः आत्ताद्याय च लाद्याय च नमः षष्ट्याय च भेन्याय च नमः सिकत्याय च प्रवाह्याय च नम हिरण्याय च प्रपत्याय च नमः किगुंशिलाय च क्षयनाय च नमः कपर्दिने च पुलस्तये च नमो गोष्ठ्याय च गृह्याय च नमः कल्प्याय च गेह्याय च नमः कात्याय च गह्वरेष्ठाय च नमो हृदयाय च निवेष्ट्याय च नमः पागुंसव्याय च रजस्याय च नमः शुष्क्याय च हरित्याय च नमो लोप्याय चोलप्याय च नमः ऊन्याय च सून्याय च नमः पर्याय च पर्णशद्याय च नमो पगुरमाणाय च विघ्रते च नमः आकिदते च प्रकिदते च नमो वक्किरिकेभ्यो देवानागुं हृदयेभ्यो नमो विक्षीणकेभ्यो नमो विचिन्वत्केभ्यो नम आनिर्हतेभ्यो नम आमीवत्केभ्यः द्रापे अन्धसरस्वते दरिद्रन्नीललोहिता येषाम् पुरुषाणामेषाम् पशूनाम् माभिर्मा रोमो येषाम् किञ्च नाम मत् या ते रुद्र शिवा तनो शिवा विश्वाः भेषजे शिवा रुद्रस्य भेषजे तया नो मृणजीवसे इमागुम् रुद्राय तवसे कपर्दिने क्षयद्वीराय प्रभरामहे मतिम् यदा नः शमसद्विपदे च दुष्पदे विश्वम् पुष्टम् ग्रामे अस्मिन्ननातुरम् मृडानो रुद्रोदनो मयस्कृति क्षयद्वीराय नमसा विधेमते यच्चम् च योश्चमनुराय चे पिता तदश्यामतव रुद्र प्रणीतौ मानो महान्तमुतमानो अर्भकम् मान उक्षन्तमुतमान उक्षितम् मानो वदे पितरम् मोद मातरम् प्रियामानस्तनुवो रुद्ररीषः मानस्तोकेतनये मान आयुषि मानो गोषु मानो अश्वेषु रीरिषः वीरान्मानो रुद्रभावितो वदेरविश्वन्तो नमसा विधेमते आरात्ते गोग्र उत पोरुषग्ने शयद्वीराय सुम् नमस्मेते अस्तु रक्षा जनो अधि च देव ब्रूयता च नः शर्म यच्चद्विवरुहा तु हि श्रुतम् गत्त सदम् युवानम् मृगन्न भीममुपहत्रुमुग्रम् मृडा चरित्रेणुद्रस्तवानो अन्यन्ते अस्मन्निव पन्तु सेना परिणो रुद्रस्य हेतुर्वृणक्तु परित्वेषस्य दुर्मतिरघायोः अवस्ति रामगवद्यस्तनुष्वमीडुत्तोकायतनयाय मृडया मीडुट्टमशिवतमशिवो न सुमना भव परमे वृक्ष आयुधम् निधाय कृत्यम् वसानाचल पिनाकम् विभ्रदागहे विगिरित विलोहित नमस्ते अस्तु भगवः यास्ते सहस्रगुम् एतयोन्यमस्मन्निव पन्तु ताः सहस्राणि బాహువోత్తమహేతయః తాసామీశానో భగవపరాచీనాముఖాకృతే శాస్త్రాణి తాసరశో యే రుద్రాదిభూమ్యాః తేషాగుం శాస్త్రయో జనే వధన్వాని దన్మసే అస్మిన్ మహత్యర్ణవేంతరిక్షే భవాది నీలగ్రీవాశితికంఠా శర్వాదః క్షమాజరాః నీలగ్రీవాశితికంఠాదివగుం రుద్రా ఉపశ్రితాః యే వృక్షేషు తస్మింజరా నీలగ్రీవా విలోహితాః యే భూతానామధిపతయో విశిఖాసక్కవర్దినః యే అన్నేషు వివిద్యంతి పాత్రేషు విపదోజనాన్ యే పథాంబతిరక్షయ ఐలభృదాయ వ్యుదః యే తీర్థాని ప్రజరంది దృగావంతో నిషంగిణః య ఏతావంతశ్చ భూయాగుంతశ్చ దిశో రుద్రావితత్తిరే తేషాగుంతత్రయో జనే వధన్వాని దన్మసే నమో రుద్రేభ్యో యే పృథివ్యాం యేంతరిక్షే యే దివ్యే శామన్నం వాతో వర్షమిషవస్తేభ్యో దశ ప్రాచీర్దశ దక్షిణా దశ ప్రతిచీర్ధశోర్ధ్వస్తేభ్యో నమస్తే నో మృడయంతు తేయం ధిష్మో యశ్చ నో ద్వేశ్చితం భోజం భే దదామి త్ర్యంబకం యజామహే సుగంధిం పుష్టివర్ధనం ఉర్వారుకమివ బంధనాన్ మృత్యోర్ముక్షీయమామృతాత్ యో రుద్రో అగ్నవ్యో అప్సు యోషధీషు యో రుద్రో విశ్వ భువనాదివేశతస్మై రుద్రాయ నమో అస్తు ఏతే సహస్రమయుతం పాశా మృత్యో మత్యాయహంతవే తాన్ యజ్ఞస్య మాయయా సర్వానవయజామహే మృత్యవే స్వాహా మృత్యవే స్వాహా ప్రాణానాం గ్రంథిరసిరుద్రో మా విశాంతకః తేనాప్యాయస్వా నమో రుద్రాయ విష్ణవే మృత్యుర్మే పాహి తమస్తు హియత్స్వశత్సు ధన్వాయో విశ్వస్య క్షయతి భేతజస్య యక్ష్వా మహేశో మనసాయ రుద్రం నమో దేవమసురం ధువస్య అయం మే హస్తో భగవాన్ అయం మే భగవత్తరః అయం మే విశ్వభేషజోయగు శివాభిమరుషణః ఓం శాంతి 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 అగ్రా విష్ణు సజోష సేవావర్తంతు వాంగిరః జుమ్నైర్వాజే విరాగతం వాజశ్చ మే ప్రసవశ్చ మే ప్రయతిశ్చ మే ప్రసితిశ్చ మే ధీతిశ్చ మే క్రతుశ్చ మే స్వరశ్చ మే శ్లోకశ్చ మే శ్రావశ్చ మే శ్రుతిశ్చ మే జ్యోతిశ్చ మే శుభశ్చ మే ప్రాణశ్చ మే పానశ్చ మే ప్యానశ్చ మే సుశ్చ మే చిత్తం చ మాదేతం చ మే వాక్చ మే మనశ్చ మే చక్షుశ్చ మే శ్రోత్రం చ మే దక్షశ్చ మే బలం చ మఓజశ్చ మే సహశ్చ మ ఆయుశ్చ మే జరా చ మ ఆత్మా చ మే తనోశ్చ మే శర్మ చ మే వర్మ చ మే గాని చ మే स्थानि च मे परोगुंसि च मे शरीराणि च मे ज्येष्ठ्यम् च माधिपत्यम् च मे मन्युश्च मे भामश्च मे मश्च मेऽम्भश्च मे सीमा च मे महिमा च मे परिमा च मे प्रतिमा च मे वर्ष्मा च मे त्राघुया च मे वृद्धम् च मे वृद्धिश्च मे सत्यम् च मे श्रद्धा च मे जगच्च मे धनम् च मे वशश्च मे त्विशिश्च मे क्रीडा च मे मोदश्च मे जातम् च मे जनिष्यमानम् च मे सूक्तम् च मे सुकृतम् च मे वित्तम् च मे वेद्यम् च मे भूतम् च मे भविष्यच्च मे सुगम् च मे सुपथम् च मरुद्धम् च मरुद्धिश्च मे क्लुप्तम् च मे क्लुप्तिश्च मे मतिश्च मे सुमतिश्च मे शं च मे मयश्च मे प्रियम् च मे नु कामश्च मे कामश्च मे सौमनसश्च मे भद्रम् च मे श्रेयश्च मे वस्यश्च मे यशश्च मे भगश्च मे द्रविणम् च मे यन्ता च मे धर्ता च मे क्षेमश्च मे धृतिश्च मे विश्वम् च मे महश्च मे संविच्च मे ज्ञात्रम् च मे सोश्च मे प्रसोश्च मे शीरम् च मे लयश्च मरुतम् च मे मृतम् च मे यक्ष्वम् च मे नामयश्च मे जीवातुश्च मे दीर्घायुत्वम् च मे न मित्रम् च मे भयम् च मे सुगम् च मे शयनम् च मे सोषा च मे सुदिनम् च मे ऊर्च मे सोनृता च मे पयश्च मे रसश्च मे घृतम् च मे मधु च मे सद्भिश्च मे सपीतिश्च मे कृशिश्च मे वृष्टिश्च मे चैत्रम् च मौदिद्यम् च मे रयिश्च मे रायश्च मे पुष्टम् च मे पुष्टिश्च मे विभु च मे प्रभु च मे बहु च मे भूयश्च मे पूर्णम् च मे पूर्णतरम् च मे क्षितिश्च मे कूयवाश्च मे नम् च मे शुच्च मे व्रीहयश्च मे यवाश्च मे माशाश्च मे तिलाश्च मे मुद्गाश्च मे कल्वाश्च मे गोधूमाश्च मे मसुराश्च मे प्रियङ्गवश्च मे नवश्च मे श्यामाकाश्च मे निवाराश्च मे अश्वा च मे मृत्तिका च मे गिरयश्च मे पर्वताश्च मे सिकताश्च मे वनस्पतयश्च मे हिरण्यम् च मे यश्च मे सेतम् च मे त्रपुश्च मे श्यामम् च मे लोहम् च मे अग्निश्च मापश्च मे विरोधश्च मौषधयश्च मे कृष्णपत्यम् च मे कृष्णपत्यम् च मे ग्राम्याश्च मे पशवारण्याश्च यज्ञेन कल्पन्ताम् वित्तम् च मे वित्तिश्च मे भूतम् च मे भूतिश्च मे वसु च मे वसतिश्च मे कर्म च मे शक्तिश्च मे अर्थश्च म एमश्च म इतिश्च मे गतिश्च मे अग्निश्च म इन्द्रश्च मे सोमश्च म इन्द्रश्च मे सविता च म इन्द्रश्च मे सरस्वती च म इन्द्रश्च मे పూషా చ మహేంద్రశ్చ మే బృహస్పతిశ్చ మహేంద్రశ్చ మే మిత్రశ్చ మహేంద్రశ్చ మే వరుణశ్చ మహేంద్రశ్చ మే త్వష్టా చ మహేంద్రశ్చ మే ధాతా చ మహేంద్రశ్చ మే విష్ణుశ్చ మహేంద్రశ్చ మే శ్వినో చ మహేంద్రశ్చ మే మరుతశ్చ మహేంద్రశ్చ మే విశ్వే చ మే దేవా ఇంద్రశ్చ మే పృథివీ చ మహేంద్రశ్చ మేంతరిక్షం చ మహేంద్రశ్చ మే ద్యౌశ్చ మహేంద్రశ్చ మే దిశశ్చ మహేంద్రశ్చ మే మూర్ధా చ మహేంద్రశ్చ మే ప్రజాపతిశ్చ మహేంద్రశ్చ మే అగుంసుశ్చ మే రశ్మిశ్చ మేదాభ్యశ్చ మేధిపతిశ్చ మ ఉపాగుంసుశ్చ మేల్కర్యామశ్చ మహేంద్రవాయవశ్చ మే మైత్రావరుణశ్చ మహాశ్వినశ్చ మే ప్రతిప్రస్థానశ్చ మే శుక్రశ్చ మే మంథే చ మహాగ్రయణశ్చ మే వైశ్వదేవశ్చ మే ధ్రువశ్చ మే వైశ్వానరశ్చ మరుతు గ్రహాశ్చ మేతి గ్రాహ్యాశ్చ ఐంద్రాగ్నశ్చ మే వైశ్వదేవశ్చ మే మరుత్వతీయాశ్చ మే మాహేంద్రశ్చ మహాదిత్యశ్చ మే సావిత్రశ్చ మే సారస్వతశ్చ మే పౌష్ణశ్చ మే పాత్నీవతశ్చ మే భార్యోజనశ్చ మే ఇద్మశ్చ మే బర్హిశ్చ మే వేదిశ్చ మే దిష్ణీయాశ్చ మే సృజశ్చ మే చమసాశ్చ మే గ్రావాణశ్చ మే స్వరవశ్చ మౌపరవాశ్చ మే దిశవనే చ మే ద్రోణకలశశ్చ మే వాయవ్యాని చ మే పూతవృక్ష మాధవనీయశ్చ ఆగ్నేయం చ మే అవిర్ధానం చ మే గృహాశ్చ మే సదశ్చ మే పురోడాశాశ్చ మే పచతాశ్చ మే వ్రతశ్చ మే స్వగాకారశ్చ మే అగ్నిశ్చ మే కర్మశ్చ మేర్కశ్చ మే సూర్యశ్చ మే ప్రాణశ్చ మే శ్వమేధశ్చ మే పృథివీ చ మే దితిశ్చ మే దితిశ్చ మే ద్యౌశ్చ మే శక్వరీరంగులయో దిశశ్చ మే యజ్ఞేన కల్పంతామృచ్చ మే సామ చ మే సోమశ్చ మే యజుశ్చ మే దీక్షా చ మే తపశ్చ మరుతుశ్చ మే వ్రతం చ మే హోరాత్రయోర్వృష్ట్యా బృహద్దదంతరే చ మే యజ్ఞేన కల్పేతాం గర్భాశ్చ మే వత్సాశ్చ మే త్రయవిశ్చ మే త్రయవే చ మే దిత్యవాశ్చ మే దిత్యౌహే చ మే పంచావిశ్చ మే పంచావే చ మే త్రివత్సశ్చ మే త్రివత్సా చ మే తుర్యవాశ్చ మే తుర్యౌహే చ మే పష్టవాశ్చ మే పష్టౌహే చ మౌక్షా చ మే వశా చ మరుషభశ్చ మే వేహశ్చ మే నడ్వాంచ మే ధేనుశ్చ మాయు యజ్ఞేన కల్పతాం ప్రాణో యజ్ఞేన కల్పతాం అపానో యజ్ఞేన కల్పతాం జ్ఞానో యజ్ఞేన కల్పతాం చక్షుర్యజ్ఞేన కల్పతాం గుశ్రోత్రం యజ్ఞేన కల్పతాం మనో యజ్ఞేన కల్పతాం వాగ్యజ్ఞేన కల్పతాం ఆత్మా యజ్ఞేన కల్పతాం యజ్ఞో యజ్ఞేన కల్పతాం ఏకా చ మే తిస్రశ్చ మే పంచ చ మే సప్త చ మే నవ చ మే ఏకాదశ చ మే त्रयोदश च मे पञ्चदश च मे सप्तदश च मे नवदश च म एकविगुंसतिश्च मे त्रयोविगुंसतिश्च मे पञ्चविगुंसतिश्च मे सप्तविगुंसतिश्च मे नवविगुंसतिश्च म एकत्रिगुंसच्च मे त्रयस्त्रिगुंसच्च मे चतस्रश्च मे ष्टौ च मे द्वादश च मे षोडश च मे विगुंसतिश्च मे चतुर्विगुंसतिश्च मे ष्टाविगुंसतिश्च मे त्वात्रिगुंसच्च मे शत्रिगुंसच्च मे चत्वारिगुंसच्च मे चतुश्चत्वारिगुंसच्च मे ष्टाचत्वारिगुंसच्च मे वाजश्च प्रसवश्च पिजश्च क्रतुश्च सुवश्च मूर्धा च व्यस्तयश्चान्त्यायनश्चान्त्यश्च भुवनश्च भुवनश्चाधिपतिश्च इरादे बहुर्मनोर्यज्ञनिर्बृहस्पतिरुक्था मदानिशगुंसि षद्विश्वे देवासूर्तवाच पृथिवीवातर्मामाहिगुंसि मधुमनिष्ये मधुजनिष्ये मधुवक्ष्यामि मधुवदिष्यामि मधुमतीम् देवेभ्यो वाचमुद्यासगुं शुश्रूषेण्याम् मनुष्ये व्यस्तम् मा देवा अवन्तु शोभायै पितरो नु मदन्तु ॐ शान्ति शान्ति शान्तिः ॐ तच्चय्योरावृणीमहे गातुम् यज्ञाय गातुम् यज्ञपतये दैवे स्वस्तिरस्तु नः स्वस्तिर्मानुषेभ्यः ऊर्ध्वम् जिगातु भेषजम् शन्नो अस्तु द्विपदे शं चतुष्पदे ॐ शान्ति शान्ति शान्तिः सहस्रशीरुषा पुरुषः सहस्राक्षः सहस्रपार् सवोमिम् विश्वतो वृत्वा अत्यतिष्ठद्दशाङ्गुलम् पुरुष एवेदगुम् सर्वम् यद्भूतम् यच्च भव्यम् उतामृतत्वस्येषा नः यदन्नेनातिरोहति एतावानस्य महिमा अतो जायागश्च पुरुषः पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतम् दिवे त्रिपादोर्ध्व उदयत्पुरुषः पादोऽस्येहा भवात् पुनः ततो विश्वम् व्यक्रामत् साशनालचने अभि तस्मात् विराडजायत विराजो अधिपुरुषः स जातो अत्यरिच्यत पश्चाद्भूमिमतो पुरः यत्पुरुषेण हविषा देवा यज्ञमतन्वत वसन्तो अस्यासीदाज्यम् ग्रीष्म इद्भशरद्धविः सप्तास्यासन् परिधयः त्रिसप्त समिध कृताः देवायज्ञज्ञम् तन्वानाः अबध्नन् पुरुषम् पशुम् तम् यज्ञम् परिहिषि प्रोक्षन् पुरुषम् जातमग्रतः तेन देवा अयजन्त साद्यादिशयश्च ये तस्माद्यज्ञात् सर्वहुतः संवृतम् प्रशदाज्यम् पशोगस्तागश्चक्रेवायव्यान आरण्यान् ग्राम्याश्च ये तस्मात् यज्ञात् सर्वहुतः रुचस्तामानि जग्निरे छन्दागुंसि जग्निरे तस्मात् यजुस्तस्मादजायत तस्मादश्वा अजायन्त ये केचो भयादतः गावो हजग्निरे तस्मात् तस्माच्चाता अजावयः यत्पुरुषम् यददुः कतिधाव्यकल्पयन् मुखम् किमस्य कौ बाहो का ऊरुपादा उच्येते ब्राह्मणोऽस्य मुखमासीत् बाहूराजन्यकृतः ऊरु तदस्य यद्वैष्यः पद्व्यागुम् शूद्रो अजायत चन्द्रमा मनसो जातः चक्षुःसूर्यो अजायत मुखादिन्द्रस्याग्निश्च प्राणाद्वायुरजायत नाभ्यासीदन्तरिक्षम् शीर्षोद्यौ समवर्तत पद्भ्याम् भूमिर्दिश श्रोत्रात् तथा लोकागुम् अकल्पयन् वेदाहमेतम् पुरुषम् महान्तम् आदित्यवर्णम् तमसस्तु पारे सर्वाणि रूपाणि विचित्यधीरः नामानि कृत्वा विवधन्यदास्ते धाता पुरस्ताद्यमुदा जहारा शक्रप्रविद्वान् प्रदिशश्च तस्रः तमेवम् विद्वानमृत इह भवति नान्यः पन्था अयनाय विद्यते यज्ञेन यज्ञमयजन्त देवाः तानि धर्माणि प्रथमान्यासन् ते हनाकम् महिमानः सचन्ते यत्र पूर्वे साद्या सन्ति देवाः अभ्यः सम्भूत पृथिव्यैरसा च विश्वकर्मणः समवर्तता हि तस्य त्वष्टा विदद्रूपमेति तत्पुरुषस्य विश्वमाजानमग्रे वेदाहमेतम् पुरुषम् महान्तम् आदित्यवर्णम् तमसः परस्तात् तमेवम् विद्वानमृत इह भवति नान्यः पन्ता विद्यते यनाय प्रजापतिष्टलति गर्भे अन्तः अजायमानो बहुधा विजायते तस्य धीरा परिजानन्ति योनिम् मरीचीनाम् पदमिच्छन्ति वेदसः यो देवेभ्य आतपति यो देवानाम् पुरोहितः पूर्वो यो देवेभ्यो चासः नमो रुचाय ब्राह्मये रुचम् ब्राह्मम् जनयन्तः देवा अग्रे तदद्ब्रुवन् यस्त्वैवम् ब्राह्मणो वेत्यात् तस्य देवा असन्वशे श्रीष्यते लक्ष्मीस्य पत्यौ अहोरात्रे पार्श्वे नक्षत्राणि रूपम् अश्विनौ व्याक्तम् इष्ठम् मनिषाणा अमुम् मनिषाणा सर्वम् मनिषाणा तच्चयो रावृणीमहे गातुम् यज्ञाय गातुम् यज्ञपतये दैवे स्वस्तिरस्तु नः स्वस्तिर्मानुषेभ्यः ऊर्ध्वं जिगातु भेषजं शन्न अस्तु द्विपदे शं चतुष्पदे ॐ शान्ति शान्ति शान्तिः ॐ आतो न इन्द्रक्षुमन्तम् चित्रम् ग्राभम् संगृभाय महाहस्ते दक्षिणेन विद्माहित्वा तु विकूर्मिम् तु विदेष्णम् तु विमघम् तु विमात्रमवोभिः न हि त्वा शूरदेवानमर्ता सोदित्सन्तम् भीमम् नगाम् वारयन्ते ये तोन्विन्द्रम् सवामेशानम् वस्वस्वराजम् नराधसामर्दिशन्नः प्रस्तोषदुपगासि छत्रवत्सामगीयमाणम् अभिराधसा जुगुरत् आनो भरदक्षिणेनाभिसव्येन प्रमृषा इन्द्रमानो वसो निर्भाक् उपक्रमस्वा भरदृशता धृष्णो जनानाम् अदाशुश्चरस्य वेदः इन्द्रय उनुते अस्ति वाजो विप्रेभिः समित्वः अस्माभिः सुतम् स नो हि सद्यो जुवस्ते वाजा अस्मभ्यम् विश्वश्चन्द्राः वशैश्चमक्षो जरन्ते गणानां त्वा गणपतिम् हवामहे कविम् कवीनामुपमश्रवस्तमम् ज्येष्ठराजम् ब्रह्मणाम् ब्रह्मणस्पत आनशृण्वन् नोतिभिस्तेदसादनम् निषुषेदगणपते गणेषु त्वामा उर्विप्रथमम् कवीनाम् नरुते त्वक्रियते किञ्चनारे महामर्गम् मघवञ्चित्रमर्च अभिज्ञानो मघवन्नाधमानान् सखे भो दिवसुपति सखीनाम् रणम् कृधिरणकृत्सस्त सूक्ष्मा भक्ते चिदाभजाराये अस्मान् ॐ शान्ति शान्ति शान्तिः ॐ देवस्य त्वा सवितुः प्रसवे अश्विनो बाहुभ्या पुष्यो हस्ताभ्याम् अश्विनोर्भैषज्येन तेजसे ब्रह्मवर्चसा याभिषिञ्चामि देवस्य त्वा सवितुः प्रसवे अश्विनो बाहुभ्याम् पुष्णो हस्ताभ्याम् सरस्वत्यै भैषज्येन वीर्यायानाद्यायाभिषिञ्चामि देवस्य त्वा सवितुः प्रसवे अश्विनोर्बाहुभ्याम् पुष्णो हस्ताभ्याम् इन्द्रस्येन्द्रियेण श्रियै यशसे बलायाभिषिञ्चामि देवस्य त्वा सवितुः प्रसवे श्विनोर्बाहुभ्याम् पुष्टो हस्ताभ्यागुम् सरस्वत्यै वाचो यन्तुर्यन्त्रेणाग्ने स्व साम्राज्येनाभिषिञ्चामि इन्द्रस्य त्वा साम्राज्ये नाभिषिञ्चामि बृहस्पते साम्राज्ये नाभिषिञ्चामि आयुराशास्ते सुप्रजास्त्वमाशास्ते सजातवनस्यामाशास्ते उत्तरान् देवयज्यामाशास्ते भूयो हविष्करणमाशास्ते दिव्यम् धामाशास्ते विश्वम् प्रियमाशास्ते यदनेन हविषास्ते तदस्यात् तदद्यात् तदस्मै देवानासन्ताम् द्रुपदादिवेनमुमुचानः श्रिन्नस्नात्वीमलादिवा पूतम् पवित्रेणेवाज्यम् आपश्युन्दन्तु मैनसः भूर्भुवस्सुवो भूर्भुवस्सुवो भूर्भुवस्सुवः ॐ शान्ति शान्ति शान्तिः ॐ पूर्णमदः पूर्णमिदम् पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॐ शान्ति शान्ति शान्तिः ॐ ईशावास्यमिदगुम् सर्वम् यत्किञ्च जगत्याम् जगत् तेन त्यक्तेन भुञ्जेथाम् माग्रध कस्य सिद्धनम् कुर्वन्नेवेह कर्माणि जिजीविषे शतगुम् समाः एवम् नैनान्यथेतोऽस्ति न कर्म लिप्यते नरे असुर्यानामते लोका अन्धेन तमसा व्रताः तागुस्ते प्रेत्याभिगच्छन्ति ये केचात्महनो जनाः अनेजदेकम् मनसो जवेयो नैनद्देवा आप्नुवन् पूर्वमर्षत् तद्धावतो नान्नत्ते तितिष्ठत्तस्मिन् नपोमा तरिष्वा दधाति तदेजति तन्नेजति तद्दूरे तद्वन्तिके तदन्तरस्य सर्वस्य तदु सर्वस्यास्य बाह्यतः यस्तु सर्वाणि भूतान्यात्म येवानुपश्यते सर्वभूतेषु चात्मानम् ततो न विजुगुप्सते यस्मिन् सर्वाणि भूतान्यात्मैवाभूद्विजानतः तत्र को मोहः कशोक एकत्वमनुपश्यतः सपर्यगाच्छुक्रमकायमव्रणमस्नाविरगुम् शुद्धमपापविद्धम् कविर्मनीषे परिभू स्वयम्भूर्याथात्तथ्यतोऽर्थान् व्यददाच्छाश्वतेभ्य समाभ्यः अन्धम् तमः प्रविशन्ति ये विद्यामुपासते ततो भूय इव ते तमोय उविद्याया गुम्रताः अन्यदेवाहुर्विद्यया अन्यदा हुरविद्यया इति सुश्रुमधीरा नान्येनस्तद्विच चक्षिरे विद्याम् च विद्याम् च यस्तद्वेदो भयगुंसः अविद्यया मृत्युम् तेत्वा विद्यया मृतमश्नुते अन्धम् तमः प्रविशन्ति ये सम्भूतिमुपासते ततो भूय इव ते तमोयौ सम्भूत्यागुम् रताः अन्यदेवाहुः सम्भवादन्यदाहुरसम् भवात् इति शुश्रुमधीरानाम् येनस्तद्विचक्षिरे सम्भूतिम् च विनाशम् च यस्तद्वेदो भयगुंसः विनाशेन मृत्युम् तीर्त्वा सम्भूत्यामृतमश्नुते हिरण्मयेन पात्रेण सत्यस्यापि हितम् मुखम् तत्त्वम् पोषन्न पावृणु सत्यधर्माय दृष्टये पोषन्नेकर्षे यमसूर्य प्राजापत्यव्यो हरश्मीन् समोहतेजो यत्ते रूपम् कल्याणतमम् तत्ते पश्यामि योऽसावसौ पुरुष सोऽहमस्मि वायुरनिलममृतमतेदम् भस्मान्तगुम् शरीरम् ॐ स्मरतो स्मर कृतगु स्मर क्रतो स्मर कृतगु स्मर अग्नेन यसुपथाराये अस्मान् विश्वानि वयुनानि विद्वान् युयोद्यस्मज्जुहुरानमेनो भूयिष्ठाम् ते नम उक्तिम् विधेम ॐ पूर्णमदः पूर्णमिदम् पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॐ शान्ति शान्ति शान्तिः ॐ ईशानः सर्वविद्यानामीश्वरः सर्वभूतानाम् ब्रह्माधिपतिर्ब्रह्मणोऽधिपति ब्रह्मा शिवो मे अस्तु सदाशिवो तद्विश्वोर्परमम् पदगुम् सदा पश्यन्ति सूरयः दिवेव चक्षुरातम् तद्विप्रासो विपन्यवो जागृवागुम् सस्समिन्धति विष्णोर्यत्परमम् पदम् नारायणाय विद्महे वासुदेवाय धीमहि तन्नो विष्णु प्रचोदयात् तत्पुरुषाय विद्महे महादेवाय धीमहि तन्नो रुद्रः प्रचोदयात् ॐ स ईश्वराय विद्महे सत्यदेवाय धीमहि तन्नः सर्वप्रचोदयात् हंस हंसाय विद्महे परमहंसाय धीमहि तन्नो हंस प्रचोदयात् स्वस्ति प्रजाभ्यः परिपालयन्ताम् न्यायेन मार्गेण महीम् महेशाः गोब्राह्मणेभ्यः शुभमस्तु नित्यम् समस्तलोकाः सुखिनो भवन्तु समस्तलोकाः सुखिनो भवन्तु समस्तलोकाः सुखिनो भवन्तु ॐ शान्ति शान्ति शान्तिः